संस्कृत रीडिंग नंबर 6 मृग काक शृगाल कथा पेज 401। भारत देशे दंडकन नाम वनमवर्तत। बहवः पशवः खगाश्च तच्चारु वन मध्य तिष्ठन्। तस्मिन् वने बह्व्यो नद्यो बहवश्च हृदा अविद्यन्त। तत्र सुमतिर्नाम काकश्चित्रांगो नाम मृगश्च सुखेनावसताम्। काको मृगस्य मित्रम्, मृगश्च काकस्य। यथा काकस्य दुःखेन मृगो दुःखमन्वभवत्, तथैव मृगस्य दुःखेन काकोऽपि दुःखमन्वभवत्। एकस्य सुखेनान्यस्य सुखमजायत। एकदा स मृगस्तृणं खादितुं वने पर्यभ्राम्यत्। कश्चिच्छृगालस्तं पीनं मृगमपश्यत्। तमीक्षित्वा स शृगालो चिन्तयत्, कथमेतस्य पीनस्य मृगस्य स्वादुमांसं भक्षयेयमिति। एतया क्षुद्रया मत्या स शृगालस्तं मृगमुपगम्य व्याहरत्। हे मित्र, नमस्ते, अपि ते सुखं वर्धत एतस्मिंश्चारुणि वन इति। तं शृगालं सर्वतो निरीक्ष्य स मृगो वदत्, कस्त्वं? सर्वाणि मम मित्राणि बोधाम्यहं। त्वां त्वहं न कदाप्येतस्मिन् वने पश्यम्। कुतस्त्वमागच्छसि? कुतस्त्वं मां मित्रं मन्यस इति। शृगालो भाषत, क्षुद्रमतिर्नाम शृगालोऽहम्। मम सर्वा भार्याः पुत्राश्चानले मृताः। मित्राणि च मे न क्वापि भवन्ति। ततोऽहमेक एव मृत इव जीवामि। यस्य नरस्य मित्राणि न भवन्ति, तस्य जीवने सर्वमेव दुःखम्। तस्य जीवनं मरणमेव। अधुना त्वां दृष्ट्वा प्रसन्नोऽहं त्वां मित्रं मन्ये। त्वया मित्रेण सहाहं सुखेन जीवेयमिति। मृगो वदत्, यस्त्वमेवं भाषसे स त्वं साधुरेव। अहमपि त्वां मित्रं लब्ध्वा प्रसन्नः। आगच्छ, एतस्मिन् वन आवां सुखेन वसेवेति। मृगस्य मित्रं काकस्तस्मा अवदत्, एष शृगालो यद्यपि स्वादूनि वचनानि भाषते, तथापि तस्य सर्वाणि वचनानि सर्वदा परीक्षस्व। सर्वे शृगालाः सर्वदा क्षुद्रा एव भवन्ति। एतस्य नामापि क्षुद्रमतिरिति। एकदा शृगालो मृगमवदत्, एतस्मिन्नेव वने किञ्चित् क्षेत्रम् अहमैक्षे, तद्धान्येन पूर्णं भवतीति। तत्राहं त्वां नेतुमिच्छामि। तद्धान्यं खादित्वा यदि त्वं पीनो भवेस्तर्हि त्वां पीनं दृष्ट्वा सुखेनैवाहं पीनो भवेयम् इति। मित्रस्य वचनेन प्रसन्नः स मृगो धान्यं खादितुं तत् क्षेत्रमगच्छत्। तत्रैव स जाले पतत्। मृगं जाले पतितं दृष्ट्वा प्रसन्नस्य शृगालः सुखेनानृत्यत्। सोचिन्तयत्, यदैतस्य क्षेत्रस्य पतिर् मृगं हत्वा भूमौ क्षिपेत्, तदाहं सुखेन तत् स्वादुमांसं खादेयमिति। जाले पतितो मृगस्तत्रैव मृत इवातिष्ठत्। तं मृतं मत्वा क्षेत्रस्य पतिस्तं जालादमुञ्चत्। जालान्मुक्तः स मृगो वेगेन वनं प्रत्यधावत्। तं मृगं हन्तुं क्षेत्रस्य पतिर्दण्डं प्राक्षिपत्। तेन दण्डेन स क्षुद्रः शृगाल एवाम्रियत्।